एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। निर्वाचनायोगेन स्थानीय स्तरस्य उपनिर्वाचनम् स्वच्छे स्वतन्त्रे निष्पक्षे विश्वसनीये भयरहिते च वातावरणे सम्पादयितुम् सुरक्षा व्यवस्थाम् प्रभावकारिणीम् विधातुम् च गृहमन्त्रालयः निर्दिष्टोऽस्ति। निर्वाचनायुक्तस्य सगुण शमशेर जबरा इत्यस्य संयोजकत्वे उपविष्टेन उच्चस्तरीय निर्वाचन सुरक्षा समिते ह्यस्तनोपवेशेन स्थानीय स्तरस्य उपनिर्वाचनस्य सुरक्षा योजनायाः क्रियान्वयनम् विधाय सुरक्षा व्यवस्थाम् प्रभावकारिणीम् विधातुम् निर्दिष्टमस्ति। आयोगेन उपनिर्वाचनम् स्वच्छे स्वतन्त्रे निष्पक्षे भयरहिते च वातावरणे सम्पादयितुम् उपयुक्ताम् सुरक्षा व्यवस्थाम् अवलम्ब्य सार्वजनिक यातायातस्य सञ्चालनाय व्यवस्थापनाय च निर्दिष्टमस्ति। मतदान कार्यस्य समाप्तेः समनन्तरमेव मतपत्र सहिताः मतपेटिकाः सुरक्षिततया मतगणनास्थलम् यावत् प्रापयितुम् आवश्यक सुरक्षा व्यवस्थायाः कृते निर्दिष्टमस्ति। उपनिर्वाचनस्य प्रचार प्रसार निषेधावधौ आचार संहितायाः पूर्णतया पालनाय तदनुगमनाय च आयोगेन निर्दिष्टमस्ति। निषेधस्य कार्यस्य कृते तत्कालम् दण्डव्यवस्थाम् विधातुम् च अनुरुद्धमस्ति। अस्यैव मार्गशीर्ष मासस्य पञ्चम दिवसात् मतगणना दिनपर्यन्तम् सम्पत्स्यमानोपनिर्वाचनेषु स्थानीय स्तरेषु मदिरायाः क्रय विक्रय सेवनानाम् नियन्त्रणम् विधातुम् सम्बद्धैः स्थानीय स्तरैः सह सम्पृक्तेषु राष्ट्रिय राजमार्गेषु यातायात सेवायाः उपयुक्ताम् व्यवस्थाम् विधातुमपि आयोगेन निर्दिष्टमस्ति। पूर्वसभामुखस्य दमननाथ ढुङ्गानाविदस्य पशुपति क्षेत्रवर्तिनी आर्यघट्टस्थाने ह्यो राजकीय सम्मानेन अन्त्येष्टिकर्म विहितम् वर्तते। तदवसरे नेपाली सेनायाः समूहेन दिवंगत ढुङ्गानाविदस्य आत्मनः सम्माने सैन्याभिवादनम् अर्पितम् आसीत्। ढुङ्गानाविदस्य पार्थिव शरीरे तदीय पुत्रैः दाहदीपः प्रज्वालितः आसीत्। यकृत सम्बद्ध समस्यायाः कारणेन कतिभ्यश्चिद् दिवसेभ्य उपचाररतः पूर्वसभामुख ढुङ्गाना पुरानो वानेश्वर वर्तिनी फ्रण्टलाइन चिकित्सालये 83 वर्षाणाम् वयसि परह्यः दिवंगतः आसीत्। पूर्वसभामुखम् ढुङ्गानाविदम् प्रति श्रद्धाञ्जलेः अर्पणाय सभामुख देवराज घिमिरे राष्ट्रिय सभायाः अध्यक्ष नारायण प्रसाद दाहाल प्रधान न्यायाधीशः प्रकाशमान सिंह राउत नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा नेकपा माओवादी केन्द्रस्य अध्यक्ष प्रचण्ड उप प्रधानमन्त्रिणो मन्त्रीगणः विभिन्न राजनैतिक दलानाम् नेतारः कार्यकर्ता सांसदाः विभिन्न व्यवसायिनः साधारण जनाश्च आर्यघट्टम् प्राप्ताः आसन्। तत्पूर्वम् ह्यः प्रातः बालुवाटारवर्तिनी प्रधानमन्त्री निवासे मन्त्रिपरिषदः उपवेशेन पूर्वसभामुखस्य ढुङ्गानाविदस्य राजकीय सम्मानेन सह अन्त्येष्टिकर्म विधातुम् निर्णीय ह्यस्तनदिवसाय आराष्ट्रम् सार्वजनिकावकाशम् प्रदातुम् निर्णीतम् आसीत्। नेपाली कांग्रेस दलेन दिवंगतस्य पूर्वसभामुखस्य दमननाथ ढुङ्गानाविदस्य सम्मानाय ह्य अध्यक्ष दलस्य केन्द्रीय कार्यालय दलस्य ध्वजम् अर्धम् नमयितुम् निर्णीतम् वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमिते ह्य उपविष्टेन आकस्मिक उपवेशेन अद्य मंगलवासरे केन्द्रीय कार्यालयम् पिधापयितुम् निर्णीय मृत्योः त्रयोदशे दिवसे केन्द्रीय शोकसभाम् आयोजयितुम् च निर्णीतम् अस्ति। नेपाली कांग्रेस केन्द्रीय कार्यालयेन ज्ञापितम् वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिनः नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन सह यो मेलवार्ता सम्भूतास्ति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे सम्भूते अनयोर्मेलने सामयिक विषयेषु विमर्शनम् सम्भूतमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणाय समन्वयेन कार्यम् विधातुम् नेपालेन बंगलादेशः अनुरुद्धोऽस्ति। अजरबैजान देशस्य बाकुनगरे सञ्चल्यमाने जलवायु परिवर्तन सम्बद्धस्य महासन्धेः पक्षराष्ट्राणाम् सम्मेलने भागम् ग्रहीतुम् अजरबैजान देशम् प्राप्तस्य वनवातावरण मन्त्रिणा एन बहादुर साई ठकुरी इत्यस्य बंगलादेशस्य पर्यावरण वन जलवायु परिवर्तन जलस्रोतो मन्त्रिण सेदा रिजवाना हसन इत्यस्याश्च मध्ये सम्भूते मेलने जलवायु परिवर्तन विषय संयुक्त विषयत्वेन अग्रे नेतुम् बलम् दत्तमस्ति। नेपालेन बंगलादेशाय विद्युत निर्यात प्रारब्धोस्ति इति चर्चयन् मन्त्री साई जलविद्युत स्वच्छोर्जोस्ति इत्यतः जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणाय विद्युदशो महत्वपूर्णा भवति इति अवोचत। नेपाल भारतयोः सीमा सुरक्षा सम्बद्ध द्वयो देशयोः अधिकारिणाम् उपवेश ह्यः सम्पन्नोऽस्ति। उपवेशेन पारेसीमम् जायमानानाम् अपराधानाम् नियन्त्रणम् प्रभावकारी विधातुम् निर्णीतमस्ति। दिनत्रयम् यावत् उपविष्टेन उपवेशेन द्वयोः देशयोः संयुक्त प्रयासेन सीमा सुरक्षाम् अधिकाम् प्रभावकारिणीम् विधातुम् सीमनि जायमानानाम् अपराधानाम् नियमनस्य कार्यम् प्रभावकारितया संचालयितुम् च निर्णीतम् वर्तते। गत शनिश्चरवासरात् प्रारब्धे उपवेशे सशस्त्र प्रहरी महानिरीक्षकेन राजु अर्यालेन भारतस्य सीमा सुरक्षा बलस्य महानिर्देशकेन अमृत मोहन प्रसादेन च एकादश सुविषयेषु हस्ताक्षराणि विहितानि सन्ति। काष्ठमण्डप महानगरपालिकया द्वात्रिंशतोवडा क्षेत्रेभ्य अवकरस्य वर्गीकरणं कृत्वा व्यवस्थापनं विधीयते। काष्ठमण्डपोपत्यकायाः अष्टादशसु स्थानीयस्तरेषु उत्पादितस्य अवकरस्य वंसरी डाँडावर्तिनी अवकर व्यवस्थापन केन्द्रे नयने उक्तस्थले प्रदूषण वर्धनेन सहैव अवकरस्य संकलने परिवहन सेवायां व्ययस्य वर्धनात् वर्गीकृतस्य अवकरस्यैव व्यवस्थापनं विधातुं पूर्वकार्यं विहितम् अस्ति इति काष्ठमण्डप महानगरपालिकायाः वातावरण व्यवस्थापन विभागेन ज्ञापितं वर्तते। सम्प्रति पञ्चम दशम द्वाविंश पञ्चविंश षड्विंश वडा क्षेत्रेषु स्रोतस्थले एव अवकरस्य वर्गीकरणं विधीयमानम् अस्ति। अतः परं शीघ्रमेव अन्येषु वडा क्षेत्रेषु अपि अवकरस्य वर्गीकरणं कृत्वा संकलनं विधाय व्यवस्थापनं कर्तुं महानगरपालिकया पूर्वकार्यं विहितं वर्तते। स्रोतस्थलेषु उत्पन्नेषु अवकरेषु प्रतिशतं विंशतेः एव वञ्चरे डाँडावर्तिनी अवकर व्यवस्थापन स्थले नयनस्य अवशिष्टावकराय सेवा प्रदायकस्य माध्यमेन व्यवस्थापनाय महानगरपालिकया पूर्वं कार्यं विहितं वर्तते। सम्प्रति काष्ठमण्डप उपत्यकायाः अष्टादश स्थानीयस्तरेभ्यः प्रतिदिनं सहस्रं षट्शतं च मेट्रिक टन परिमितः अवकरः उत्पद्यते। मुंगलिङ पोखरा मार्गा योजना अन्तर्गतस्य तनौ खण्डस्य छिरिखान देउराली मार्ग खण्ड ह्यस्तनात् दिवसात् विंशतिम् दिनानि यावद् रात्रौ एकादशवादनाद् प्रतिदिनं सार्धचतुष्टय घण्टाः पिधीयते। प्रथमं चरणे रात्रौ एकादशवादनात् एकवादन यावत् द्वितीय चरणे रात्रौ सार्धैकवादनात् चतुर्वादनं यावत् मार्गखण्डसौ पूर्णरूपेण पिधीयते। तनहु जनपद प्रहरी कार्यालयेन ह्य सूचनां प्रकाश्य दीर्घकालं यावत् राजमार्गस्य पिधापनाय निर्णीतत्वात् वैकल्पिकं मार्गं प्रयोक्तुम् अनुरुद्धमस्ति। रात्रौ वादनात् सार्धैकवादनं यावत् मार्गः सञ्चालितो भवति। तदवधौ अत्यावश्यक यातायात साधनानि विहाय अन्येषां यातायात साधनानां कृते मार्गः पूर्णतया पिधीयते इति जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक अशोक थापा अज्ञापयत्। कालीकोट जनपदस्य शुभकालिका ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य रारा ग्रामे ह्य विद्युत प्रवाह स्पर्शेन एको जन मृतोऽस्ति। विद्युत प्रणाल्याः सम्भाराय विद्युत स्तम्भे आरोहणस्य क्रमे विद्युत प्रवाह स्पर्शेन षड्विंशति वर्षीय एको जन मृत इति कालीकोट जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक टेक बहादुर रावत अज्ञापयत्। भारतस्य राजधान्यां नयाँ दिल्ली नगरे वर्धमान वायु प्रदूषणस्य कारणेन ह्यस्तन दिवसात् अपर सूचनायाः अप्रकाशनं यावत् विद्यालयाः पिहिताः सन्ति इति समाचाराः।